प्राग्नये वसे भरध्वंगिरं दिवारतये पृथिव्याः एवो विश्वे कामृतानामुपस्थे वैश्वानरो वा वृधे जाग्रवद्भिः दृष्टो दिविधायज्ञः पृथिव्याम् नेता सिन्धूनाम् मृगभस्त्यानाम् समानोषीरभिविशो विभाति वैश्वानरो वा वृधानो वरेण तद्भिया विषा आयन्नसिक्नीरसमनाजहतीर्भोजानानि वैश्वानरपूर्वेशोजानः पूर्वजग्नेतरजन्नदीदे तवत्रिधातु पृथिवी भुतद्योर्वैश्वानरप्रथमग्ने सचन्त त्वम् भासा रोदसीयादन्तालश्रेण सोऽभिधासोऽसूजानः त्वामद्देहनयो वामसानाविरस्रन्ते धुना यो घृताजीः पतिम् कृष्टीनाम् रक्ष्यम् रयीणाम् मयीश्वानरमुषधाम् केतुमह्नाम् त्वे असुर्याम्बोङ्गिरम् भङ्क्रतुम् विते वित्रमो दृषन्त त्वम् दस्योऽङ्ग्रोकासो अग्नाय पुरुज्योतिर्जनजन्नार्याय स जायमानः परमेव्योन्नायुर्नपाथप्रदीपासि सद्यः त्वम् भुवजा जनयन्नभिक्रन्नपत्याय जातवेदोदशन् तामग्ने अस्मेयिषवेदाय स्वैश्वानरद्युमतीम् जातवेदः जाराधपिण्डासि विश्ववारपृथुस्रवो दादृशे मत्याय तन्नो अग्ने मघवद्भ्यः पुरुक्षम् रयिन्निवाजाम् श्रुत्यम् युवस्व ऐश्वारमहीनः शर्मा यच्छ रुद्रेभिरग्ने वसूभिः सजोराः